గతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆన శృణ్వన్ నోతిభిః సేద సాదనం ప్రణో దేవీ సరస్వతీ వాజేభిర్వాజినీవతీ ధీనామ విత్రయవతు గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమణ్యవ ఉతోత ఇషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః యాత ఇషు శివతమా శివం బభూవతే ధనుః శివాశరవ్యాయాతవతయానో రుద్రమృడయా యాతే రుద్ర శివా తనూర ఘోరా పాపకాశిని తయానస్తను వాశంతమయా గిరిశంతాభిచాకశీ యామిషుం గిరిశంత హస్తే బిభర్ష్యస్తవే శివాం గిరిత్రతాం కురు మాహిగుం శ్రీ పురుషం జగత్ శివేన వచసాత్వా గిరిశాచ్ఛా వదామసి యతాన సర్వమిజ్జగత యక్ష్మగుం సుమనా అసత్ అధ్యవోచదధివక్త్వా ప్రథమో దైవ్యో భిషక్ అహీవశ్చ సర్వాన్ జంభయన్ సర్వాశ్చ యాతు ధాన్యః అసౌ యస్తామ్రో అరుణ ఉత వప్రుః సుమంగళః ఏజేమాగుం రుద్ర అభితో దిక్షుశ్రుత సహస్రశో వైశాగుం హేణ ఈమహే అసవ్యో వసర్పతి నీలగ్రీవో విలోహితః ఉదైనం గోపా అదృశన్నదృశన్నదహార్యః ఉదైనం విశ్వా భూతాని సదృష్టో మృడయాదినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మేఢుషే అతో యే అస్య సత్వానోహం తేభ్యో కరన్నమః ప్రముంచ ధన్వనస్త్వముభయోరార్నియోర్జాం యాస్య తే హస్త ఇషవ పరాతా భగవో వప అవతత్య ధనుస్వగుం సహస్రాక్షశతే సుధే నిషీర్య శల్యానాముఖా శివో నః సుమనాభవ విజ్యం ధనుః కపర్దినో విషయ్యో బాణవాగుం ఉత అనేశన్నశేషవ ఆభురస్య నిషంగతిః యా దేహేతిర్మీడుష్టమహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వతస్వమయక్ష్మయా పరిభుజా నమస్తే అస్త్వాయుధాయానాలతాయ ధృష్ణవే ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః అథోయ ఇషుదిస్తవారి అస్మన్నిదేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యం జయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః नमो हिरण्यमाहवे सेनाङ्गे दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्मिञ्जरायत्विषेमते पथीनाम् पतये नमो नमो बभ्रुषाय विव्याधिनेनानाम् पतये नमो नमो हरिकेशायोपरीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्ये जगताम् पतये नमो नमो रुद्रायादताविने क्षेत्राणाम् पतये नमो नमः सूतायाहन्त्यायवनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्नीनाम् पतये नमो नम कृष्णवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः खगुभाय निषङ्गिणेस्तेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते तत्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्तायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः श्रृगाविभ्यो जिगागुं सद्भ्यो मुष्टताम् पतये नमो नमो शिवभ्यो नक्तं चरद्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो दन्वाविभ्यश्च वो नमो नम आदन्वानेभ्य प्रतिदध्वानेभ्यश्च वो नमो नम आयच्छभ्यो ऋषुजभ्यश्च वो नमो नमोऽस्यभ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमः शिष्टद्भ्यो दावभ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुम् अदीभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विलोपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतिभ्यो रतेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहेतृभ्यश्च वो नमो नमः सक्षभ्यो रथकालेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नमः श्वभ्यश्वपदिभ्यश्च वो नमः నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిబివిష్టాయ చ నమో మేడుష్టమాయ చేషుమతే చ నమో రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్రయాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రియాయ చ శీభ్యాయ చ నమః ఊర్మ్యాయ చ వస్వన్యాయ చ నమః శ్రోతస్యాయ చ వేభ్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ ప్రగల్భాయ చ నమో జగన్యాయ చ బుద్ధియాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ కళ్యాయ చ నమః శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేనాయ చాశురతాయ చ నమః శూరాయ చ వభిందతే చ నమో వర్మినే చ వరోతిరే చ నమో బిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హరణ్యాయ చ నమో దృష్టవే చ ప్రమశాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగినే చేషుధిమతే చ నమః స్తీక్ష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పత్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః సూత్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఇంద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః సామ్రాయ చ అరుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే జానీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః స్తీర్థ్యాయ చ కోల్యాయ చ నమః పార్యాయ చ వార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆతార్యాయ చ లార్ద్యాయ చ నమః షష్ప్యాయ చ పేణ్యాయ చ నమః సికత్యాయ చ ప్రవాహ్యాయ చ నమ ఇరిణ్యాయ చ ప్రపత్యాయ చ నమః కిగుంశిలాయ చ క్షయణాయ చ నమః కపర్దినే చ పులస్తయే చ నమో కోష్ట్యాయ చ గృహ్యాయ చ నమః సల్ప్యాయ చ గేహ్యాయ చ నమః కాట్యాయ చ గప్పరేష్టాయ చ నమో హృదయాయ చ నివేష్ప్యాయ చ నమః పాగుం సవ్యాయ చ లజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమః ఊర్ధ్వాయ చ సూర్ణ్యాయ చ నమః పర్యాయ చ పర్ణషద్యాయ చ నమో పగులమాణాయ చాభిగ్ధతే చ నమః ఆఖిదతే చ ప్రఖిదతే చ నమో వక్షిరికేభ్యో దేవానాగుం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విజిన్వత్కేభ్యో నమ ఆనిర్హతేభ్యో నమ ఆమీవత్కేభ్యః ద్రాపే అంధసస్పతే దరిద్రం నీలలోహితా ఏషాం పురుషాణామేషాం పశూనాం మాభిర్మా రోమో ఏషాం కించనామమత్ యాతే రుద్ర శివా తనో శివా విశ్వాః భేషజే శివా రుద్రస్య భేషజే తయా నో మృణ జీవసే ఇమాగుం రుద్రాయ తవసే కపర్దినే క్షయద్వీరాయ ప్రమరామహే మతిం యతాన శమసద్విపదే చతుష్పదే విశ్వం పుష్టం గామే అస్మిన్ననాతురం మృణానో రుద్రో తనో మయస్కృతే క్షయద్వీరాయ నమసా విధేమతే యచ్చం జయోశ్చ మనులాయ జే పితా తదశ్యామ తవ రుద్ర ప్రణీతౌ మానో మహాంతముదమాన అద్భగం మాన ఉక్షంతముదమాన ఉక్షితం మానో వదే పితరం మోత మాతరం ప్రియమానస్తనువో రుద్రరీరిషః మానస్తోకే తనయే మాన ఆయుషి మానో గోషు మానో అశ్వేషు రీరిషః వీరాన్మానో రుద్రభావితో వదేర్ హవిష్మంతో నమసా విధేమతే ఆలాత్తే గోంద ఉత పూరుషగ్నే క్షయద్వీరాయ సుం నమస్వేతే అస్తు రక్షాచరో అభి చ దేవ ప్రూయదా చ నః శర్మ యచ్చ త్రివర్హాః సుహిశ్రుతం గద్ద సదం యువానం మృగన్న భీమముపహత్వముగ్రం మృళాచరిత్రే రుద్రస్తవానో అన్యంతే అస్మన్నివ పంతు సేనా పరిణో రుద్రస్య హేతుర్మిణత్తు పరిత్వేషస్య దుర్మతిరగాయో అవస్థిరా మగవద్యస్తనుష్వమేవస్తోకాయ తనయాయ మృడయా మేడుష్టమ శివ తమ శివో నః సుమనా భవ పరమే వృక్ష ఆయుధం నిదాయ కృత్తిం వసాన ఆచర పినాకం బిభ్రదాగహే విగిరిత విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేతయోన్యమస్మన్నివ పంతు తాః సహస్రాణి సహస్రదా బాహువోస్తవ హేతయః తాశామీశానో భగవః పరాచీనాముఖాకృతే సహస్రాణి సహస్రశో యే రుద్ర అధిభూమ్యా తేషాగుం సహస్రయోజనే వదన్వాని తన్మసే అస్మిన్ మహత్యర్ణవేంతరిక్షే భవా అదే నీలగ్రీవాశిది కంఠా శల్వా అదః క్షమాచలాః నీలగ్రీవాశిది కంఠాదివగుం రుద్ర ఉపశ్రితాః ఏ వృక్షేషు తస్మిన్ జరా నీలగ్రీవా విలోహితాః ఏ భూతానామధిపతయో విశికాసక్కపర్దినః ఏ అన్నేషు వివిద్యంతి పాత్రేషు విపతో జనాన ఏ పతాం పతిరక్షయ ఐలవృదాయ వ్యుదః एतेर्थानि प्रचलन्ति शृकावन्तो निषङ्गिणः एतावन्तस्य भूयागुम् तस्य दिशो रुद्रावितस्थिरे तेषागुम् सहस्रयोजने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचे दश दक्षिणा दश प्रदेचे दशो देचे दशो द्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् विश्वो यश्च नो द्वेष्टितम् भोजम्भे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् पूर्वानुकमिव बन्धना मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनादिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे नृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनाङ्गेनाप्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु हि यस्वशुत्सु धन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे सजो यगु शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोष सेवावर्धन्तु वाङ्गिरः युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रथितिश्च मे दीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च महादेतम् च मे वाक् च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे रक्षश्च मे बलम् च महोजश्च मे सहश्च म आयुश्च मे चरा च म आत्मा च मे तरोश्च मे शर्म च मे वर्म च मे गानि च मे सानि च मे परोगुंसि च मे शरीराणि च मे ज्येष्ठम् च महाधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मे भश्च मे जेमा च मे महिमा च मे वलिमा च मे प्रतिमा च मे वर्ष्मा च मे त्रागुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वसश्च मे द्विषिश्च मे क्रीडा च मे मोदश्च मे चातम् च मे जनिष्यमानम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपतम् च मरुद्धम् च मरुद्धिश्च मे क्लृप्तम् च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मे नो कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञातृम् च मे सोश्च मे प्रसोश्च मे शीलम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयश्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ऊर्च मे सोऽता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सग्धिश्च मे सपेतिश्च मे कृशिश्च मे वृष्टिश्च मे चैत्रम् च मौद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कोयवाश्च मे नम् च मे श्रुश्च मे प्रेहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्दाश्च मे कल्वाश्च मे गोधूमाश्च मे मधुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिगताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे तपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च महापश्च मे वेरुधश्च म ओषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मे अन्तरिक्षम् च म इन्द्रश्च मे यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसश्च मे रश्मिश्च मे दाभ्यश्च मे धृपतिश्च म उपागुंसश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्ते च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतु ग्रहाश्च मे तिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्पदीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्यो जनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धृष्ट्याश्च मे तुजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धृषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतवृक्ष म आधवनीयश्च म आग्नेयग्रं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे पचताश्च मे ववृजश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्योश्च मे शक्वरिरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ताम्रच्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्दधन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्य मे दित्यौ हि च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्य मे तुर्यौ हि च मे पष्टवाच्य मे पष्टौ हि च म उक्षा च मे वषा च मऋषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पतागुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे अष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे अष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे अष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्च विजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञे बृहस्पतिरुक्ता मदानिषगुंसिषद्विश्वे देवासूतवाच पृथिवीमातर्मा माहिगुंसि मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभाये पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः। ॐ तच्छञो रावृणीमहे गातयज्ञाय गातयज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः। ओर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे। ॐ शान्ति शान्ति शान्तिः। सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतं यच्च भव्यम् उतामृतत्वस्येषा नः यदन्नेनातिरोहति एतावानस्य महिमा। असोऽध्यायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्व उदये पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् साशनादशने अभि तस्माद्विराज जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चात् भूमिमतो पुनः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्मः शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तं यज्ञम् वरेषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संहृतम् वृषदाज्यम् पशोगुस्तागुश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋषस्तामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेजो भयादतः गावोह जज्ञिरे तस्मात् तस्माज्जात अजावयः यत्पुरुषम् व्यदधुः कलिधा व्यकल्पयन् मुखम् किमस्य कौ बाहो काहोरोपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः ओरोदस्य यद्वैष्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेषोऽद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वा विवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार शक्र प्रविद्वान् प्रदिशश्चतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त्र देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्य सम्बोध पृथिव्यसा विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवते नान्यः पन्था विद्यते जनाय प्रजापतिस्सरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो ऋचाय ब्राह्मये ऋचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रीश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याप्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणाम् तच्छञ्योरावृणीमहे गातम् यज्ञाय गातम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् द्विगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ यश्छन्दसाम् ऋषभो विश्वरूपः छन्दोऽभ्योऽद्यमृतात् सम्बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाया मेधा देवी जुषमानान आगा विश्वाचि भद्रा सुमनस्यमाना त्वया दुष्टानुदमाना दुरुत्तान् बृहद्वदेव विधते सुवेराः त्वया दुष्टऋषिर्भवति देवि त्वया ब्रह्मा गतश्रीहृतत्वया त्वया जुष्टश्चित्रम् विन्दते वसुसानो जुषस्वद्रविणो न मेधे मेधाम् महीन्द्रो ददातु मेधाम् देवी सरस्वती मेधाम् मे अश्विना उभावा दत्ताम् पुष्करस्रजा अप्सरासु चया मेधा गन्धर्वेषु चयन्मनः ದೈವೀ ಮೇಧಾ ಸರಸ್ವತಿ ಸಾಮಾ ಮೇಧಾ ಸುರಭಿರ್ಜುಷತ ಗುಸ್ವಾಹಾ ಆಮಾ ಮೇಧಾ ಸುರಭಿರ್ ವಿಶ್ವರೂಪ ಹಿರಣ್ಯವರ್ಣ ಜಗತೇಜ ಗಮ್ಯಾ ಊರ್ಜಸ್ವತಿ ಪಯಸಾ ಪಿನ್ವಮಾನ ಸಾಮಾ ಮೇಧಾ ಸುಪ್ರತೀಕಾಜುಶಂಕಾಂ ಮಯಿ ಮೇಧಾಂ ಮಯಿ ಪ್ರಜಾಂ ಮಯಿ ಅಗ್ನಿಸ್ತೇಜೋ ದಧಾತು ಮಯಿ ಮೇಧಾಂ ಮಯಿ ಪ್ರಜಾಂ ಮಯಿ ಇಂದ್ರ ಇಂದ್ರಿಯಂ ದಧಾತು ಮಯಿ ಮೇಧಾಂ ಮಯಿ ಪ್ರಜಾಂ ಮಯಿ ಸೂರ್ಯೋ ಭ್ರಾಜೋ ದಧಾತು ಹಂಸ ಹಂಸಾಯ ವಿದ್ಮಹೆ ಪರಮಹಂಸಾಯ ಧೀಮಹಿ ತನ್ನೋ ಹಂಸ ಪ್ರಚೋದಯಾತ್ ಶಾಂತಿ 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 ಮಯಿ ಮೇಧಾಂ ಮೇಧಾಂ ಮಯಿ ಮಯಿ ಮೇಧಾಂ ಮಯಿ ಮಯಿ ಮೇಧಾಂ ಮಯಿ ಮಯಿ ಮೇಧಾಂ ಮಯಿ ಮೇಧಾಂ ಮಯಿ ಮಯಿ ಮೇಧಾಂ ಮೇಧಾಂ ಮಯಿ ಪ್ರಜಾಂ ಪ್ರಜಾಂ ಮಯಿ ಮೇಧಾಂ ಮೇಧಾಂ ಮಯಿ ಪ್ರಜಾಂ ಮಯಿ ಪ್ರಜಾಂ ಪ್ರಜಾಂ ಮಯಿ ಮಯಿ ಪ್ರಜಾಂ ಮಯಿ ಮಯಿ ಪ್ರಜಾಂ ಮಯಿ ಮಯಿ ಪ್ರಜಾಂ ಮಯಿ ಪ್ರಜಾಂ ಮಯಿ ಮಯಿ ಪ್ರಜಾಂ ಪ್ರಜಾಂ ಮಯಿ ಅಗ್ನಿರಗ್ನಿರ್ಮಯಿ ಪ್ರಜಾಂ ಪ್ರಜಾಂ ಮಯಿ ಅಗ್ನಿ ಪ್ರಜಾಮಿತಿ ಪ್ರಜಾಂ ಮಯಿ ಅಗ್ನಿರಗ್ನಿರ್ಮಯಿ ಮಯಿ ಅಗ್ನಿಸ್ತೇಜಸ್ತೇಜೋಗ್ನಿರ್ಮಯಿ ಮಯಿ ಅಗ್ನಿಸ್ತೇಜ ಅಗ್ನಿಸ್ತೇಜಸ್ತೇಜೋಗ್ನಿರಗ್ನಿಸ್ತೇಜೋ ದಧಾತು ದಧಾತು ತೇಜೋಗ್ನಿರಗ್ನಿಸ್ತೇಜೋ ದಧಾತು ತೇಜೋ ದಧಾತು ದಧಾತು ತೇಜಸ್ತೇಜೋ ದಧಾತು ಮಯಿ ಮಯಿ ದಧಾತು ತೇಜಸ್ತೇಜೋ ದಧಾತು ಮಯಿ ದಧಾತು ಮಯಿ ಮಯಿ ದಧಾತು ದಧಾತು ಮಯಿ ಮೇಧಾಂ ಮೇಧಾಂ ಮಯಿ ದಧಾತು ದಧಾತು ಮಯಿ ಮೇಧಾಂ ಮಯಿ ಮೇಧಾಂ ಮೇಧಾಂ ಮಯಿ ಮಯಿ ಮೇಧಾಂ ಮಯಿ ಮಯಿ ಮೇಧಾಂ ಮಯಿ ಮಯಿ ಮೇಧಾಂ ಮಯಿ ಮೇಧಾಂ ಮಯಿ ಮಯಿ ಮೇಧಾಂ ಮೇಧಾಂ ಮಯಿ ಪ್ರಜಾಂ ಪ್ರಜಾಂ ಮಯಿ ಮೇಧಾಂ ಮೇಧಾಂ ಮಯಿ ಪ್ರಜಾಂ ಮಯಿ ಪ್ರಜಾಂ ಪ್ರಜಾಂ ಮಯಿ ಮಯಿ ಪ್ರಜಾಂ ಮಯಿ ಮಯಿ ಪ್ರಜಾಂ ಮಯಿ ಮಯಿ ಪ್ರಜಾಂ ಮಯಿ ಪ್ರಜಾಂ ಮಯಿ ಮಯಿ ಪ್ರಜಾಂ ಪ್ರಜಾಂ ಮಯಿ ಇಂದ್ರ ಇಂದ್ರೋ ಮಯಿ ಪ್ರಜಾಂ ಪ್ರಜಾಂ ಮಯಿ ಇಂದ್ರ ಪ್ರಜಾಮಿತಿ ಪ್ರಜಾಂ ಮಯಿ ಇಂದ್ರ ಇಂದ್ರೋ ಮಯಿ ಮಯಿ ಇಂದ್ರ ಇಂದ್ರಿಯಮಿಂದ್ರಿಯಮಿಂದ್ರೋ ಮಯಿ ಮಯಿ ಇಂದ್ರ ಇಂದ್ರಿಯಂ ಇಂದ್ರ ಇಂದ್ರಿಯಮಿಂದ್ರಿಯಮಿಂದ್ರ ಇಂದ್ರ ಇಂದ್ರಿಯಂ ದಧಾತು ದಧಾತ್ವಿಂದ್ರಿಯಮಿಂದ್ರ ಇಂದ್ರ ಇಂದ್ರಿಯಂ ದಧಾತು ಇಂದ್ರಿಯಂ ದಧಾತು ದಧಾತ್ವಿಂದ್ರಿಯಮಿಂದ್ರಿಯಂ ದಧಾತು ಮಯಿ ಮಯಿ ದಧಾತ್ವಿಂದ್ರಿಯಮಿಂದ್ರಿಯಂ ದಧಾತು ಮಯಿ ದಧಾತು ಮಯಿ ಮಯಿ ದಧಾತು ದಧಾತು ಮಯಿ ಮೇಧಾಂ ಮೇಧಾಂ ಮಯಿ ದಧಾತು ದಧಾತು ಮಯಿ ಮೇಧಾಂ ಮಯಿ ಮೇಧಾಂ ಮೇಧಾಂ ಮಯಿ ಮಯಿ ಮೇಧಾಂ ಮಯಿ ಮಯಿ ಮೇಧಾಂ ಮಯಿ ಮಯಿ ಮೇಧಾಂ ಮಯಿ ಮೇಧಾಂ ಮಯಿ ಮಯಿ ಮೇಧಾಂ ಮೇಧಾಂ ಮಯಿ ಪ್ರಜಾಂ ಪ್ರಜಾಂ ಮಯಿ ಮೇಧಾಂ ಮೇಧಾಂ ಮಯಿ ಪ್ರಜಾಂ ಮಯಿ ಪ್ರಜಾಂ ಪ್ರಜಾಂ ಮಯಿ ಮಯಿ ಪ್ರಜಾಂ ಮಯಿ ಮಯಿ ಪ್ರಜಾಂ ಮಯಿ ಮಯಿ ಪ್ರಜಾಂ ಮಯಿ ಪ್ರಜಾಂ ಮಯಿ ಮಯಿ ಪ್ರಜಾಂ ಪ್ರಜಾಂ ಮಯಿ ಸೂರ್ಯ ಸೂರ್ಯೋ ಮಯಿ ಪ್ರಜಾಂ ಪ್ರಜಾಂ ಮಯಿ ಸೂರ್ಯ ಪ್ರಜಾಮಿತಿ ಪ್ರಜಾಂ ಮಯಿ ಸೂರ್ಯ ಸೂರ್ಯೋ ಮಯಿ ಮಯಿ ಸೂರ್ಯೋ ಭ್ರಾಜೋ ಭ್ರಾಜ ಸೂರ್ಯೋ ಮಯಿ ಮಯಿ ಸೂರ್ಯೋ ಭ್ರಾಜ ಸೂರ್ಯೋ ಭ್ರಾಜೋ ಭ್ರಾಜ ಸೂರ್ಯ ಸೂರ್ಯೋ ब्राजो दधातु ब्राजसूर्यसूर्यो ब्राजो दधातु ब्राजो दधातु दधात्विति दधातु ॐ शान्ति शान्ति शान्तिः ॐ अग्निर्मे वाचिश्रितः वाग्हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि वायुर्मे प्राणे श्रितः प्राणो हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि सूर्यो मे चक्षुषि श्रितः चक्षुर्हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि चन्द्रमा मे मनसि श्रितः मनो हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि दिशो मे श्रोत्रे श्रुताः श्रोत्रगुं हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि आपो मे रेतसि श्रुताः रेतो हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि पृथिवी मे शरीरे श्रुताः शरीरगुं हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि ओषधिवनस्पतयो मे लोमसि श्रुताः लोमानि हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि इन्द्रो मे बले श्रुतः बलगुं हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि पर्जन्यो मे मूर्ध्नि श्रुतः मूर्धा हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि ईशानो मे मन्यौ श्रुतः मन्यहृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि आत्मा म आत्मनि श्रुतः आत्मा हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि पुनर्म आत्मा पुनरायुरागात् पुनः प्राणः पुनराकूतमागात् वैश्वानरो रश्मिभिर्मावृधानः अन्तस्तिष्ठत्वमृतस्य गोपाः ॐ शान्ति शान्ति शान्तिः ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ ईशावास्यमिदगुम् सर्वम् यत्किञ्च जगत्याम् जगत् तेन त्यक्तेन भुञ्जीताम् मा कृतः कस्य स्विद्धनम् कुर्वन्नेवेह कर्माणि जिजीविषेच्छतगुम् समाः एवम् त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे असुर्यानामते लोका अन्धेन तमसावृताः तागस्ते प्रेत्य याभिगच्छन्ति एके च आत्महनो जनाः अने जदेकम् मनसो च वीर्यो नैन देवा आप्नुवन् पूर्वमर्षत् तद्धावतोऽन्यानत्ते तिष्ठन्तस्मिन् नपोमातरिष्वा दधाति तदेजति तन्ने जति तद्दूरे तद्वन्तिके तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति सर्वभूतेषु चात्मानम् ततो न विजुगुप्सते यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः तत्र को मोहः शोक एकत्वमनुपश्यतः स पर्यगाच्छुक्रमकायमवृणमस्ता विरगुम् शुद्धमपापविद्धम् कविर्मनीषे परिभूः स्वयम् भूर्याथ तथ्यतोर्धान्यदधाच्छाश्वतीभ्यः समाभ्यः अन्धम् तमः प्रविशन्ति ये विद्यामुपासते ततो भूय इव ते तमोयौ विद्यायागुम्रताः अन्यदेवाहुर्विद्यया अन्यदा गुरविद्यया इति शुश्रुमधीराणाम् येन त्वद्विचक्षिरे विद्याम् च विद्याम् च यस्तद्वेदोभयगुंसः अविद्यया मृत्यम् तेत्वा विद्यया मृगमश्नुते अन्धम् तमः प्रविशन्ति ये सम्भूतिमुपासते ततो भूय इव ते तमोयौ सम्भूत्यागुम् गताः अन्यदेवाहुः सम्भवादन्यदा पुरसम्भवात् इति शुश्रुमधीराणाम् येन स्तद्विचक्षिरे सम्भूतिम् च विनाशम् च यस्तद्वेदोभयगुंसः विनाशेन मृत्युम् तीर्त्वा सम्भूत्यामृतमश्नुते हिरण्मयेन पात्रेण सत्यस्यापि हितम् मुखम् तत्त्वम् पोषन्न पावृणु सत्यधर्माय दृष्टये पोषन्नेकर्षेयमसूर्य प्राजा पत्यव्योहरश्मिन् समोहते जो यत्ते रूपम् कल्याणतमम् तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि वायुरनिलममृतमधेदम् भस्मान्तगुम् शरीरम् ॐ क्रतोस्मर कृतगस्मर क्रतोस्मर कृतगस्मर अग्नेनय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोध्यस्मज्जुहुराणमेनो भूयिष्ठाम् ते नम उक्तिम् विधेम ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्छ्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः 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 स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति